ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः। श्रीशुक उवाच, अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः, मन्वन्तरे शानुकथा निरोधो मुक्तिराश्रयः। दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणं, वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा। भूतमात्रेन्द्रियधियां जन्मसर्ग उदाहृतः, ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः। स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः, मन्वन्तराणि सद्धर्म ऊतयः कर्म वासनाः। अवतारानुचरितं हरेश्चास्यानुवर्तिनां, शतामीशकथा प्रोक्ता नानाख्यानोपब्रह्मिताः। निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः, मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः। आभासश्च निरोधश्च यतश्चाध्यवसीयते, साश्रय परं ब्रह्म परमात्मेति शब्द्यते। योऽध्यात्मिकोऽयं पुरुषः सोऽसा वेवाधिदैविकः, यस्तत्रोभयविच्छेदः पुरुषो यादि भौतिकः। एकमेकतराभावे यदा नोपलभामहे, त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः। पुरुषोऽण्डं विनिर्भिद्य यदा सौ स विनिर्गतः, आत्मनोयनमन्विच्छन्नपो स्राक्षिच्छुचिः शुचिः। तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान्, तेन नारायणो नाम यदापः पुरुषोद्भवाः। द्रव्यं कर्म च कालश्च स्वभावो जीव एव च, यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया। एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः, वीर्यं हिरण्मयं देवो मायया वसृजत्रिधा। अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः, यथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु। अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः, ओजः सहो बलं जज्ञे ततः प्राणो महानसुः। अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु, अपानन्तमपानन्ति नरदेवमिवानुगाः। प्राणेन क्षिपता क्षुत्रिडन्तरा जायते प्रभोः, पिपासतो जक्षतश्च प्राङ्मुखं निर्भिद्यत। मुखतस्तालुनिर्भिन्नं जिह्वा तत्रोपजायते, ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते। विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः, जले वै तस्य सुचिरं निरोधः समजायत। नासिके निरभिद्येतां दुधूयति नभस्वति, तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः। यदात्मनि निरालोकमात्मानं च दिदृक्षतः, निर्भिन्ने यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः। बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः, कर्णौ च निरभिद्येतां दिशा श्रोत्रं गुणग्रहः। वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीततां, जिघृक्षतस्त्वं निर्भिन्ना तस्यां रोममहीरुहाः। तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः, हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया। तयोस्तु बलमिन्द्रश्च य आदानमुभयाश्रयम्, गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम्। पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः। निरभिद्यत शिष्णो वै प्रजानन्दामृतार्थिनः, उपस्थासीत् कामानां प्रियं तदुभयाश्रयम्। उत्सिसृक्षोर्धातुमलं निरभिद्यत वैगुदम्, ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः। आसिसृप्सो पुरःपुर्यानाभिद्वारमपानतः, तत्रापानस्ततो मृत्यु पृथक्त्वमुभयाश्रयम्। आदित्सोरन्नपानानामासन् कुक्ष्यन्त्र्यनाडयः, नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये। निदिध्यासोरात्मायां हृदयं निरभिद्यत, ततो मनस्ततश्चन्द्रः सङ्कल्पः काम एव च। त्वक्चर्म मांसरुधिरमेदो मध्यास्ति धातवः, भूम्यप्तेजो मया सप्त प्राणो व्योमाम्बुवायुभिः। गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः, मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी। एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया, मय्यादिभिश्चावरणैरष्टभिर्बहिरावृतम्। अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम्, अनादिमध्यनिधनं नित्यं वाङ्मनसः परम्। अमुनी भगवद्रूपे मया ते अनुवर्णिते, उभे अपि न गृह्णन्ति माया सृष्टे विपश्चितः। स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक्, नामरूपक्रियाधत्ते सकर्मा कर्मकः परः। प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक्, सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान्, किन्नराप्सरसो नागान् सर्पान् किं पुरुषोरगान्। मातृरक्षः पिशाचांश्च प्रेतभूतविनायकान् कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि खगान् मृगान् पशून् वृक्षान् गिरीन्द्रिपसरीसृपान् द्विविधाश्चतुर्विधायेऽन्ये जलस्थलनभौकसः कुशला कुशला मिश्रा कर्मणां गतयस्त्विमाः सत्त्वं रजस्तमैति तिस्रः सुरन्द्रिनारकाः तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते स एवेदं जगद्धाता भगवान् धर्मरूपधृक् पुष्णातिस्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः सन्नियच्छति कालेन घनानीकमिवानिलः इत्थं भावेन कथितो भगवान् भगवत्तमः नेत्थं भावेन हि परं द्रष्टुमर्हन्ति सूरयः नास्य कर्मणि जन्मादौ परस्यानुविधीयते कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः विधिस्साधारणो यत्र सर्गाः प्राकृतवैकृताः परिमाणं च कालस्य कल्पलक्षणविग्रहम् यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु शौनक उवाच यदा हनो भवान् सूतक्षत्ता भागवतोत्तमः चतारतीर्थानि भुवस्त्यक्त्वा बन्धून् सुतस्त्यजान् कुत्र कौशारवेस्तस्य संवादोऽध्यात्मसंश्रितः यद्वा स भगवांस्तस्मै पृष्ठस्तत्त्वमुवाचः ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् बन्धुत्यागनिमित्तं च तथैवागतवान् पुनः सूत उवाच राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः तद्वोभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः तद्वोभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः ओम् स्वस्ति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्याम् पारमहंस्याम् संहितायाम् द्वितीयस्कन्धे पुरुषसंस्थानुवर्णनम् नाम दशमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।